ॐ श्री सूर्यस्य नमः। प्रातः स्मरामि खलु तस्य विदुर्वरेण्यं रूपं हि मण्डलमृचोथ तनूर्यजुषिं सामानीतस्य किरणा प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यं चिन्तयरूपं प्रातर्नमामि तरणीं तनुवाङ्गनोभिः ब्रह्मेन्द्रपूर्वकसूरे नुतमर्चितं वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रलयोग्यपालनपरं त्रिगुणात्मकं च प्रातर्भजामि सवितारमनन्तशक्तिं पापोघशत्रुभयरोगहरं परं च तं सर्वलोककलात्मकालमूर्तिं गोकण्ठवन्दनविमोचनमादिदेवम् इश्लोकत्रयमिदं भानो प्रातःकाले पठेतु यः स सर्वव्याधिनिर्मुक्तं परं सुखं वाप्नुयात्।